తం యథాత్మసదృశం వరం వధూః అన్వరజ్యత వరస్తథైవ తాం సాగరాదనపగాహి జాహ్నవీ సోపి తన్ముఖరసైకవృత్తిభాక్.
తమితి వధూః పార్వతీ ఆత్మసదృశం తం వరం శివం అను లక్షయిత్వా యథా ఏన ప్రకారేణ అరజ్యత రంజరాగే దైవాదికాత్ లంగ్. వరః శివః తాం వధూం అను తథైవ అరజ్యత. హి యథా జాహ్నవీ సాగరాత్ సముద్రాత్ అనపగా అనివర్తమానా అస్తీతి శేషః. సోపి సముద్రోపి తస్యాః జాహ్నవ్యాః ముఖసంబంధిని రసే ఏకాం కేవలాం వృత్తిం భజతీతి తథోక్తః అస్తీతి శేషః. ఉపమాలంకారః.
శిష్యతాం నిధువనోపదేశినః శంకరస్య రహసి ప్రపన్నయా శిక్షితం యువతి నైపుణం తయా యత్తదేవ గురుదక్షిణీకృతం.
శిష్యతామితి నిధువనోపదేశినః సురతోపదేష్టుః శంకరస్య శిష్యతాం ఉపదేశ్యతాం ప్రపన్నయా ప్రాప్తయా తయా పార్వత్యా రహసి యద్యువతిషు త్రిజగద్విలాసినీషు మధ్యే నైపుణం కౌశలం శిక్షితం అధీతం. తదేవ నైపుణశిక్షణం ఏవ గురుదక్షిణీకృతం. గురోః అదక్షిణా దక్షిణా సంపద్యతే తథా కృతం. అభూత తద్భావే చ్విహి అస్య చ్వౌ ఇతి ఈకారః. శివోపయోగిత్వేన తత్కృత సురతారంభానుగుణ సురత కౌశలమేవ దక్షిణాత్వేన పరిణతమితి భావః. ఇహ వాక్యార్థవృత్తి నిదర్శనాలంకారః. వాక్యార్థయో సదృశయోః ఐక్యారూపో నిదర్శన ఇత్యుక్తత్వాత్.
దష్టముక్తమధరోష్ఠమంబికా వేదనా విధుతహస్తపల్లవా శీతలేన నిరవాపయత్ క్షణం మౌలిచంద్రశకలేన శూలినః.
దష్టముక్తమితి అంబికా పార్వతీ పూర్వం దష్టం పశ్చాత్ ముక్తం అధరోష్ఠం వేదనయా పీడయా విధుతౌ కంపితౌ హస్తౌ పాణీ ఏవ పల్లవౌ యథా తథోక్తా సతీ శీతలేన శూలినః శివస్య మౌలౌ యచ్చంద్రస్య శకలం కళారూపం తేన కృత్వా క్షణం నిరవాపయత్ సుఖయతిస్మేత్యర్థః.
చుంబనాదలకచూర్ణదూషితం శంకరోపి నయనం లలాటజం ఉచ్ఛ్వసత్కమలగంధయే దదౌ పార్వతీవదనగంధవాహినే.
చుంబనాదితి చుంబనాద్ధేతోః అలకచూర్ణేన కేశప్రసాధనచూర్ణవిశేషేణ దూషితం అవరుద్ధం లలాటజం లలాటే జాతం. సప్తమ్యాం జనేర్డహ ఇతి డప్రత్యయః. అలుకో వైభాషికత్వాత్ నాలుక్. నయనం నేత్రం. ఉచ్ఛ్వసత్కమలగంధయే వికసత్కమలసుగంధయే पद्मिनीत्वादिति भावः उपमानाच्च इति ईकारः गन्धो गन्धक आमोदे इति विश्वः पार्वत्याः वदनमेव गन्धवाही पवनः तस्मै गन्धवाहा नीलाशुगाः इति कोशनिर्दिष्टगन्धवाहशब्दस्य गन्धम् वहतीति योगालम्बनेन गन्धवाहिशब्देनापि वायुत्वप्रतीतिः रूढ्यालम्बने तु अण्प्रत्ययान्तस्यैव पवनत्वप्रतीतौ शक्तिमत्वात् अवाचकपददोषप्रसङ्ग इति बोध्यम् ददौ तत्र अधः रजो निवर्तयितुम् स्थापितवानित्यर्थः
एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः शैलराजभवने सहोमया मासमात्रमवसद्वृषध्वजः
एवमिति एवम् इन्द्रियाणि सुखयतीति इन्द्रियसुखः सुखशब्दात् करोत्यर्थक निजन्तात् पचाद्यच् निज्लोपश्च तस्य वर्त्मनः सेवनात् आचरणाद्धेतोः अनुगृहीतः प्रसादितः मन्मथः येन स्ववपुर्योजनादिति भावः परिणेष्यति पार्वतीम् यदा वपुषा स्वेन नियोजयिष्यति इति चतुर्थसर्गोक्तम् अनुसन्धेयम् तथा उक्तः वृषध्वजः हरः शैलराजभवने हिमालयगृहे उमया पार्वत्या सह मासमात्रम् त्रिंशद्दिनात्मकः कालः मासः तमेव अवसत् कालाध्वनोः इति द्वितीया मात्रम् कार्ष्ण्येव धारणे इत्यमरः
सोऽनुमान्यहिमवन्तमात्मभूः आत्मजाविरहदुःखखेदितम् तत्र तत्र विजहारसम्पतन् अप्रमेयगतिना ककुद्मता
स इति सः आत्मभूः शिवः आत्मजायाः पार्वत्याः विरहदुःखेन खेदितम् हिमवन्तम् अनुमान्य ततः आज्ञाम् गृहीत्वा अप्रमेयवत् स्वेव स्थानेषु वर्तत इति अपरिच्छेद्या गतिः गमनव्यापारः यस्य तथाभूतेन ककुद्मता नन्दिना तत्र तत्र पर्वते सम्पतन् सञ्चरमाणः विजहार विहारम् कृतवान् इह सञ्चरन्निति पाठः असाधुः समस्तृतीयायुक्तात् इति नित्यम् आत्मनेपदनियमात् शतुः दौर्लभ्यात् अमन्तमार्गपदम् शेषयित्वा सकर्मकत्वात् अप्रसङ्गः इति केचित् समर्थयन्ते
मेरुमेत्यमरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती हेमपल्लवविभङ्गसंस्तरान् अन्वभूत्सुरतमर्दनक्षमान्
मेरुमिति मरुदिव आशु गच्छतीति मरुदाशुगः उक्षाः वृषभः यस्य सः शेषाद्विभाषा इति कप् कृती कुशलो हरः मेरुम् सुमेरुम् मेरुः सुमेरुर्हेमाद्रिः इत्यमरः एत्य आगत्य पार्वत्याः स्तनाभ्याम् पुरस्कृतान् पूजितान् आश्रयत्वेन स्वीकारात् अल्पीयसाम् महत्स्वीकार एव पूजात्वेन परिणमतीति भावः। महताम् अल्पीयः स्वीकारे को हेतुः इत्याशङ्क्य विशेषयति। सुरतेषु यानि मर्दनानि तेषु क्षमान् सहिष्णून् हेम्नः पल्लवानाम् विभङ्गाः खण्डाः तेषाम् संस्तरान् आस्तरणानि अन्वभूत्। तत्र सुप्त्वा विजहारेत्यर्थः। अल्पीयसामपि सहिष्णुत्वम् हेम्नः विकारत्वात्। अल्पीयस्त्वम् तु पदो लवः पल्लवः इति सृष्टार्थमहिम्ना समर्थ्यते।
पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः। मन्दरस्य कटकेषु चावसत् पार्वतीवदनपद्मषट्पदः।
पद्मनाभेति हरः, पद्मनाभः हरिः, पद्मनाभो मधुरिपुः इत्यमरः। तस्य चरणाभ्याम् अङ्किताः चिह्निताः अश्मानः येषाम्। एतेन हरेरपि विहारयोग्यत्वम् ध्वन्यते। तथा नवा अमृतविपृशः अमृतबिन्दून्। पृशन्ति बिन्दुपृशताः पुमांसो विपृशस्त्रियाम् इत्यमरः। प्राप्तवत्सु समुद्रमन्थनसाधनत्वात् अस्येति भावः। मन्दरस्य च कटकेषु नितम्बेषु कटकोस्त्री नितम्बोद्रेः इत्यमरः। पार्वत्याः वदनरूपे पद्मे षट्पदः भ्रमरः सन् अवसत् वासमकरोत्।
रावणध्वनितभीतया तया कण्ठसक्तदृढबाहुबन्धनः। एकपिङ्गलगिरौ जगद्गुरुः निर्विवेश विशदा शशिप्रभाः।
रावणेति जगताम् गुरुः नियन्ता। उत्पत्यादित्रिविधकर्मणाम् गुणभेदेन कारकत्वादिति भावः। शिवः एकपिङ्गलस्य कुबेरस्य यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः इत्यमरः। गिरौ कैलासे रावणस्य प्रसिद्धराक्षसस्य ध्वनितात् सिंहनादात् भीतया तया पार्वत्या कण्ठे सक्तम् सज्जितम् दृढम् बाहुबन्धनम् यस्य सः तथोक्तः सन् विशदाः स्वच्छाः शारदिकाः इति भावः। शशिनः प्रभाः कौमुदीः निर्विवेश उपभुक्तवान्।
तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम्। आचचाम सलवङ्गकेसरः चाटुकार इव दक्षिणानिलः।
तस्येति जातु कदाचित् तस्य तत्कर्तृके मलयस्थलेषु रतम् सुरतम् तत्र सति धूताः कम्पिताः चन्दनानाम् चन्दनवृक्षाणाम् लताः शाखाः येन सह तथोक्तः। लवङ्गानाम् केसरैः किञ्जल्कैः सह वर्तते तथोक्तः। दक्षिणानिलः मलयपवनः चाटुकार इव मधुरभाषी इव प्रियायाः क्लमम् खेदम् आचचाम हृतवानित्यर्थः।
हेमतामरसताडितप्रिया ತತ್ಕರಾಂಬು ವಿನಿಮೀಲಿತೆ ಕ್ಷಣ ಸಾವ್ಯಗಾಹತ ತರಂಗಿಣೀ ಮುಮಾ ಮೀನ ಪಂಕ್ತಿ ಪುನರುಕ್ತ ಮೇಖಲಾ.
ಹೇಮೇತಿ ಸಾ ಉಮಾ ಪಾರ್ವತೀ ಹೇಮ್ನಃ ತಾಮರಸೇನ ರಕ್ತೋತ್ಪಲೇನ ತಟೋತ್ಪನ್ನೇನ ತಾಡಿತಃ ಪ್ರಿಯಃ ಯಯಾಸ ಪರಿಹಾಸ ವಿಧಿತ್ಸಯೇತಿ ಭಾವಃ ತಥಾ ತಸ್ಯ ಪ್ರಿಯಸ್ಯ ಕರಾಂಬುನಾ ಹಸ್ತಾಕ್ಷಿಪ್ತಜಲೇನ ವಿನಿಮೀಲಿತೆ ಈಕ್ಷಣೇ ನೇತ್ರೇ ಯಯಾ ತಥಾ ಮೀನಪಂಕ್ತ್ಯಾ ಪುನರುಕ್ತಾ ಮೇಖಲಾ ರಶನಾ ಯಸ್ಯಾಸ್ತಥೋಕ್ತಾ ಸತೀ ತರಂಗಿಣೀಂ ನದೀಂ ವ್ಯಗಾಹತ ವಿಜಗಾಹೇ ಜಲಕ್ರೀಡಾಂ ಚಕಾರೇತ್ಯರ್ಥಃ ತರಂಗಿಣೀ ಶೈವಲಿನೀ ಇತ್ಯಮರಃ.
ತಾಂ ಪುಲೋಮತನಯಾಲಕೋಚಿತೈಃ ಪಾರಿಜಾತಕುಸುಮೈಃ ಪ್ರಸಾಧಯನ್ ನಂದನೇ ಚಿರಮಯುಗ್ಮಲೋಚನಃ ಸಸ್ಪೃಹಂ ಸುರವಧೂಭಿರೀಕ್ಷಿತಃ.
ತಾಮಿತಿ ಅಯುಗ್ಮಾನಿ ವಿಷಮಾಣಿ ತ್ರೀಣೀತಿ ಯಾವತ್ ಲೋಚನಾನಿ ಯಸ್ಯ ಸಹ ತಥೋಕ್ತಃ ಶಿವಃ ನಂದನೇ ಇಂದ್ರೋದ್ಯಾನೇ ಪುಲೋಮತನಯಾ ಶಚೀ ಪುಲೋಮಜಾ ಶಚೀಂದ್ರಾಣಿ ಇತ್ಯಮರಃ. ತಸ್ಯಾಃ ಅಲಕೇಷು ಕೇಶೇಷು ಉಚಿತೈಃ ಪಾರಿಜಾತಕುಸುಮೈಃ ಕಲ್ಪವೃಕ್ಷಪುಷ್ಪೈಃ ತಾಂ ಪಾರ್ವತೀಂ ಪ್ರಸಾಧಯನ್ ಭೂಷಯನ್ ತಥಾ ಸುರವಧೂಭಿಃ ದೇವಾಂಗನಾಭಿಃ ಸಸ್ಪೃಹಂ ಈಕ್ಷಿತಸ್ಸನ್ ಚಿರಂ ಅವಸತ್ ಇತಿ ಶೇಷಃ.
ಇತ್ಯಭೌಮಮನುಭೂಯ ಶಂಕರಃ ಪಾರ್ಥಿವಂ ಚ ದಯಿತಾಸಖಸುಖಂ ಲೋಹಿತಾಯತಿ ಕದಾಚಿದಾತಪೇ ಗಂಧಮಾದನವನಂ ವ್ಯಗಾಹತ.
ಇತಿ ಶಂಕರಃ ಇತಿ ಏವಂ ಅಭೌಮಂ ಸ್ವರ್ಗೀಯಂ ತಥಾ ಪಾರ್ಥಿವಂ ಭೌಮಂ ಚ ಸುಖಂ ದಯಿತಾಸಖಃ ಸನ್ ಅನುಭೂಯ ಕದಾಚಿತ್ ಸಮಯೇ ಆತಪೇ ಸೂರ್ಯೇ ಲೋಹಿತಾಯತಿ ರಕ್ತವರ್ಣೇ ಜಾಯಮಾನೇ ಸತಿ ಲೋಹಿತಾದಿಡಾಜ್ಭ್ಯಃ ಕ್ಯಶ್ ಇತಿ ಕ್ಯಶ್ ಗಂಧಮಾದನಸ್ಯ ಗಿರೇಹೇ ವನಂ ವ್ಯಗಾಹತ ತತ್ರ ಕ್ರೀಡಿತುಂ ಜಗಾಮೇತ್ಯರ್ಥಃ.
ತತ್ರ ಕಾಂಚನ ಶಿಲಾತಲಾಶ್ರಯಃ ನೇತ್ರಗಮ್ಯಮವಲೋಕ್ಯ ಭಾಸ್ಕರಂ ದಕ್ಷಿಣೇತರ ಭುಜವ್ಯಪಾಶ್ರಯಾಂ ವ್ಯಾಜಹಾರ ಸಹಧರ್ಮಚಾರಿಣೀಂ.
ತತ್ರೇತಿ ತತ್ರ ಗಂಧಮಾದನವನೆ ಸಹ ಹರಃ ಭಾಸ್ಕರಂ ಸೂರ್ಯಂ ನೇತ್ರಗಮ್ಯಂ ನೇತ್ರಪ್ರಾಪ್ಯಂ ನೇತ್ರಾವಲೋಕ್ಯಮಿತಿ ಯಾವತ್ ಅವಲೋಕ್ಯ ವಿಚಾರ್ಯ ಕಾಂಚನಂ ಸೌವರ್ಣಂ ಶಿಲಾತಲಂ ಆಶ್ರಯಃ ಯಸ್ಯ ತಥೋಕ್ತಸ್ಸನ್ ದಕ್ಷಿಣೇತರಃ ಭುಜಃ ವಾಮಭುಜಃ ತತ್ರ ವ್ಯಪಾಶ್ರಯಃ ಸಂಬಂಧಃ ಯಸ್ಯಾಃ ತಾಂ ತತ್ರ ಸ್ಥಿತಾಮಿತ್ಯರ್ಥಃ. ಸಹಧರ್ಮಚಾರಿಣೀಂ ಪತ್ನೀಂ ಪಾರ್ವತೀಂ ವ್ಯಾಜಹಾರ ಉಕ್ತವಾನ್ ವ್ಯಾಹಾರ ಉಕ್ತಿರ್ಲಪಿತಂ ಇತ್ಯಮರಃ.
ಪದ್ಮಕಾಂತಿ ಮರುಣತ್ರಿಭಾಗಯೋಃ ಸಂಕ್ರಮೈಯ ತವ ನೇತ್ರಯೋರಿವ संक्षये जगदिव प्रजेश्वरः संहरत्यह रसावहर्पतिः
पद्मेति हे प्रिये असौ पुरोवर्ति अहर्पतिः सूर्यः अरुणे त्रिभागौ तृतीयांशौ ययोस्तयोः तव नेत्रयोः इव पद्मकान्तिम् कमलशोभाम् संक्रमय्य तुलयित्वा कमलप्रतिनिधित्वेन रात्रौ तव नेत्रकमल एव स्थास्यत इति विचार्येति भावः संक्षये प्रलये प्रजेश्वरः ब्रह्मा जगदिव अहो दिनम् संहरति स्वस्य अस्तंगतत्वादिति भावः अत्र गम्योत्प्रेक्षा